ॐ येन धौता गिरपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॐ श्रीगुरुभ्यो नमः हरिः ओम्
धन्यवाद भगिनी सर्वेभ्यः सर्वेषां शिष्यं स्वागतम् अस्मिन् वर्गे अस्मान् प्रवर्तमानः विषयः अस्ति तत्र आत्मनेपदीधानां तत्र लृट्लकः अस्मिन् विषये वयं पाठं पठितवन्तः अभ्यासान् अपि कृतवन्तः अपि तत्र प्रायशः किमपि न अवशिष्टः अस्ति इति मन्ये तत्र अनन्यभाक् इति पदं गतवर्गे आगतम् आसीत् तत्र अनन्यभाक् इति पदं तत्र कुत्र अस्ति पुटसङ्ख्या 89 मध्ये तत्र अनन्यभाक् इति तत्र अनन्यभाक् नाम किम् इति प्रश्नः आसीत् तत्र अनन्यभाक् सा तत्र पुटसङ्ख्या 89 मध्ये तत् त्रयोदशः वाक्यं धृताभ्यासे साधुः अनन्यभाक् ईश्वर भजते इति वाक्यमस्ति तत्र अनन्यभाक् अन्यभाक् इति अत्र विशेषणं भवति साधुः कीदृशः साहु सः अन्यभाक् साधु सः किं करोति सः ईश्वरं भजते इति ईश्वरं कर्मपदम् कं भजते ईश्वरं भजते इति तत् अनन्यभाक् तत्र विग्रहवाक्यते यो अन्यं न भजति इति सः अनन्यभाक् तत्र अन्य भज् तत्र भज् भज् इति धातुतः एतत् एतस्य पदस्य निर्माणं भवति तत्र अन्यभज् यो अथवा यः अन्यं न भजति सः अनन्यभाक् अतः तत्र सः सम्पूर्णतया तत्र तस्य उक्तिः इति कुत्र तस्य एकाग्रतया तत्र भक्तिम् तत्र सम्पूर्णतया तत्र ईश्वरे स्थापयति तस्य भक्तिम् ईश्वरे स्थापयति इति तादृश अस्ति अत्र अस्तु तर्हि तत्र गीताञ्जलि भगिनी नमस्कारः अस्तु तर्हि नमस्कारः अद्य विलम्बेन आगतवान् भगिनि अस्तु तर्हि अतः तत्र वयं लृट्लकारस्य विषयं दृष्टवन्तः इदानीं तत्र नूतलकारः भवति अद्य अद्यतनविषयः तत्र विलिङ्गलकारः वितिलिङ्गलिङ्गलकारस्य रूपद्वयमस्ति एकमस्ति सम्भानार्थे अन्यस्ति ध्यर्थे तत्र सम्भावना तत्र अहं तत्र अन्तयामि तत्र बालकः कुत्र अस्ति इति अहं पृच्छामि अनेके जनाः सन्ति तत्र विद्यालयं पृच्छामि तत्र एषः बालकः अस्ति कोऽपि वदति तत्र ओ अस्तु सः बालकः सः प्रायशः अन्यस्मिन् प्रकोष्ठे स्यात् स्यात् नाम तत्र पूर्णतया ज्ञानं नास्ति केवल ऊहां कुर्मः तत्र प्रायशः तत्र प्रायशः सः तत्र भवति इति एतादृशः अर्थः अस्ति तत्र सम्भावना अर्थे भावनार्थे इति तस्मिन् सन्दर्भे वयं विधिलिङ्गलकारस्य प्रयोगं कुर्मः अस्तु अतः तत्र विधिलिङ्गलकारस्य तत्र प्रथमतया पाठं पठामः तदनन्तरं रूपाणि अपि पश्यामः अस्तु तर्हि तत्र साक्षात् पाठः अत्र अस्ति चेत् एकाधिकनवतमी पुटे 91 सङ्ख्या अस्ति 91 तत्र मनु महोदय आरम्भं करोति महोदय
महोदय विधिलिङ्गलकारः
आं
महोदय श्रूयते वा
अस्तु 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 अस्तु, अत्र प्रायशः मम दोषः एव. एकनिमिषः. मधु महोदय नमस्ते वा इदानीम्? इदानीं
मधु महोदय श्रूयते वा?
महोदय
महोदय श्रूयते वा इदानीं?
मधु महोदय तु म्यूट् अस्ति.
क्षम्यताम् अपि, इदानीं श्रूयते वा?
श्रूयते महोदय, श्रूयते महोदय.
अस्तु महोदय. नकुलसहदेवौ युद्धशिबिरे रात्रौ सम्भाषणं कुरुतः. सहदेवः: भोः भ्रातः, श्वः युद्धस्य पञ्चमं दिनम्. नकुलः वदति: आम् भ्रातः, अद्याविधि पञ्चलक्षाधिकाः सैनिकाः वीरगतिं प्राप्तवन्तः. सहदेव वदति: सः श्वः किं किं भवेत् इति चिन्तयामि. कः युद्धारम्भं कुर्यात्? तत्तु सेनापतिः निश्चिनुयात्. भवान् केन सह युद्धं कुर्यात्? सहदेवः: ये पुरतः आगच्छेयुः तैः सह कुर्याम्. अस्माकं व्यूहरचना कथं स्यात्? नकुलः: प्रायः द्वौ व्यूहौ भवेताम् इति चिन्तयामि. आवां ते तृत्वं वहेव.
आवां पुनः महोदय.
महोदय सहदेवः: आम् आत्मानं परितः अश्वदलं स्थाप एव. नकुलः: श्रूयते महोदय?
श्रूयते महोदय, श्रूयते श्रूयते.
नकुलः: कदाचित् पितामहः भीष्मः रणतन्त्रं परिवर्तयेत्. कौरवाः युगपत् सर्वत्र आपतेयुः. सहदेव: चिन्ता न करणीया. कृष्णः तप्तरीहारोपयं चिन्तयेत्. तत् परिहार उपायं चिन्तयेत्. नकुलः: कृष्णार्जुनौ श्वः अन्यत्र गच्छेताम्. आवाभ्यां सह भ्रातः भीमः तिष्ठेत्. सहदेवः: तदापि उत्तममेव. भीमं दृष्ट्वा कौरवीराः भीत्या धावयेयुः. नकुलः: युद्धे वयं जयेम अथवा ते जयेयुः. किं तेन अस्माभिस्तु स्वधर्मः आचरितः भवति. सहदेव: आम् तथैव कुर्मः.
हा अस्तु, समीचीनं महोदय, धन्यवादः. अस्तु, अतः तत्र पुनः एतद् पाठं पुनरेकवारं पठामः, किन्तु तस्मात् प्राक् एकवारं तत्र स्थूलक्षरैः यानि पदानि सन्ति तानि सर्वाणि तत्र विधिलिङ्गकारपदानि, तत्र क्रियापदानि इति प्रथमतया तत्र अवगच्छामः. तत्र भवेत्, निश्चिनुयात्, कुर्यात्, स्यात्, वहेव, भवेताम्, तिष्ठेत्, जयेयुः, धावेयुः इति. तत्र विधिलिङ्गकारः, विधिलिङ्गकारस्य अर्थद्वयमस्ति अत्र तु सम्भावनार्थे इति अतः तत्र अग्रे तत्र सम्भावनार्थे इत्युक्ते किम् इति पश्यामः. वंशीसुरभगिनी नमस्कारः. श्रीप्रिया भगिनी नमस्कारः. पुटसङ्ख्या अस्ति 91.
नमस्ते महोदय, स्वीकृतं महोदय.
नमस्कारः भगिनी. अस्तु तर्हि तत्र प्रिया भगिनी तत्र अवधेयमिति यत् अस्ति अग्रिमे पुटे पठति वा भगिनी?
आम् आम् महोदय. उपरि लिखितेषु वाक्येषु सम्भावना अस्ति, कदाचित्, प्रायः अथवा इत्यादि पदानि सम्भावनां प्रदर्शयन्ति. सम्भावना ऊहा इत्यर्थे विधिलिङ्गलकारस्य प्रयोगः क्रियते. उपरितनानि स्थूलाक्षरैः मुद्रितानि सर्वाणि विधिलिङ्गलकारस्य रूपाणि.
अतः तत्र विधिलिङ्गलकारे तत्र किं भवति, विधिलिङ्गलकारस्य प्रयोगः भवति चेत्
तत्र सम्भावना अस्ति. वयं केवलम् ऊहां कर्तुं शक्नुमः, सम्यक् रीत्या न जानीमः.
हा, अतः पूर्णज्ञानं नास्ति. तदेव भवति न वा इति तत्र विश्वासः नास्ति. अतः तत्र एतद् भवितुमर्हति, तदेव भवति इति तत् ऊहां कुर्मः प्रायशः इति यत्र वक्तुमिच्छामः तत्र तत्र कदाचित् अथवा प्रायः प्रायशः तत्र वयं विधिलिङ्गकारस्य प्रयोगः विधिलिङ्गकारस्य प्रयोगं कुर्मः. तत्र सः कोऽपि यदि अहं चिन्तयामि तत्र मम मित्रं कुत्र अस्ति, प्रायशः सः गृहे अस्ति, गृहे स्यात्, तत्र अन्यत्र न स्यात्, गृहे एव स्यात् इति मम चिन्तनमस्ति. सः तत्र अस्ति न वा इति न जानामि, किन्तु मम ऊहा अस्ति सः प्रायशः गृहे एव अस्ति इति. अतः तत्र तत्र विधिलिङ्गकारस्य प्रयोगः. अस्तु तर्हि इदानीं तत्र विधिलिङ्गकारस्य साधारणरूपम् एकवारं पठामः, तदनन्तरं पाठम् अपि पठामः. अतः तत्र वेदा भगिनी तत्र एकवारं पुटसङ्ख्या 93 मध्ये पट् धातोः विधिलिङ्गकारस्य रूपाणि दत्तानि सन्ति, एकवारं पठति वा भगिनी?
आं महोदय. परस्मैपदीनां धातूनां विधिलिङ्गकारे रूपाणि एवं भवन्ति. परस्मैपदीधातूनां विधिलिङ्गकारे रूपाणि एवं भवन्ति. पट् धातुः प्रथमपुरुषः पठेत्, पठेतां, पठेयुः. प्रथमपुरुष एकवचनं पठेत्, द्विवचनं पठेताम्, बहुवचनं पठेयुः. मध्यमपुरुषे एकवचनं पठेः, द्विवचने पठेतं, बहुवचने पठेत. उत्तमपुरुष एकवचनं पठेयं, द्विवचने पठेव, पठे बहुवचनं बहुवचने पठेम. एवमेव लिखति, नयति, गच्छति, तिष्ठति, पृच्छति, खादति, पश्यति, इच्छति, वदति, पतति, पिबति, हसति, क्रीडति, चलति इत्यादीनां विधिलिङ्गरूपाणि भवन्ति. एवमेव एवमेव भवति तत्र,
एवमेव भवति तत्र. अस्तु, समीचीनं, धन्यवादः. सुजाता भगिनी नमस्कारः. भगिनी
नमस्कारः.
महोदय,
अनन्तरं मिलामः. नमस्कारः भगिनी. अस्तु तर्हि तत्र अन्य कोऽपि उक्तवती वा, अन्य कापि?
अहं लक्ष्मी अस्मि.
लक्ष्मी भगिनी नमस्कारः. भगिनी नमस्कारः. इदानीं भवत्याः नाम इदानीं दृश्यते. समीचीनं,
नमस्कारः.
अस्तु तर्हि इदानीं तत्र अग्रे तत्र वंशीसुधा भगिनी तत्र गच्छति इति धातोः तत्र विधिलिङ्गरूपाणि वदति वा भगिनि?
महोदय, कस्य महोदय?
गच्छति, गम् धातोः.
अस्तु, गच्छेत्, गच्छेताम्, गच्छेयुः, गच्छेः, गच्छेतं, गच्छेत, गच्छेयं, गच्छेव, गच्छेम.
हा, इति समीचीनं भगिनि. अस्तु अग्रे तत्र श्रीप्रिया भगिनी इदानीं तत्र लिखति इति क्रियापदम्?
लिखेत्, लिखेतां, लिखेयुः, लिखेः, लिखेतं, लिखेत, लिखेयं, लिखेव, लिखेम.
हा, समीचीनम्. अस्तु अग्रे नरेश महोदय तत्र इदानीं तत्र नयति,
नयति,
नयति नयेत् नयेताम् नयेयुः नयेहे नयेतम् नयेत नयेयम् नयेव नयेम
नयेम इति समीचीनम् अस्तु. इदानीं तत्र लक्ष्मी भगिनी इदानीं तत्र तिष्ठति इति
तिष्ठेत् तिष्ठेदां तिष्ठेयुः तिष्ठेः तिष्ठेदं तिष्ठेत तिष्ठेयं तिष्ठेव तिष्ठेम.
हा समीचीनम्. गीतांजलि भगिनी इदानीं तत्र पृच्छति इति
पृच्छेत् पृच्छेतां पृच्छेयुः पृच्छेः पृच्छेतं पृच्छेत पृच्छेयं पृच्छेव पृच्छेम.
हा इति समीचीनम्. इदानीं तत्र पुनः इदानीं तत्र वेदा भगिनी इदानीं तत्र सुजाता भगिनी तत्र पुटसङ्ख्या 93 तत्र कर्तुं शक्नोति वा भगिनी?
आं महोदय.
अस्तु अतः तत्र इदानीं तत्र खादति इति करोति वा?
आं महोदय. खादेत् खादेतां खादेयुः खादेः खादेतं खादेत खादेयं खादेये खादेव खादेम.
हा इति समीचीनं भगिनि. हा अस्तु इदानीं वेदा भगिनि इदानीं तत्र पश्यति इति किन्तु तत्र इदानीं कर्तृपदमपि तत्र वदतु तत्र सा इति सा पश्येत् इति
सा पश्य
आवां तत्सर्वं
सा सा पश्येत् सा सहतौति साधीतः साधीतः ओके सा पश्येत् ते पश्येतां ताः पश्येयुः साधीतः त्वं पठे त्वं पश्येः त्वं पश्येः त्वं युवां पश्येतं युवां यूयं पश्येत अहं पश्येयम् अहं पश्येयम् अहम् आवां पश्येव अहम् आवां वयं पश्येम.
हा समीचीनं भगिनि. हा अस्तु अग्रे तत्र वंशीसुधा भगिनी इदानीं तत्र इच्छेत् इच्छति इति सा इच्छति.
आं महोदय. सा इच्छति ते इच्छति
सा इच्छेत्
सा इच्छेत् ते इच्छेतां ताः इच्छेतं न ताः इच्छेयुः त्वम् इच्छेः युवाम् इच्छेतं यूयम् इच्छेत अहम् इच्छेयम् आवाम् इच्छेव वयम् इच्छेम.
हा इति समीचीनम्. उषा भगिनी इदानीं तत्र वदति इति सः इति स्वीकरोतु.
आं महोदय. वदति सः सः वदेत् तौ तौ वदेतां ते वदेयुः त्वं वहे वदेः न महोदय
त्वं वदेः
त्वं वदेः युवां वदेतं यूयं वदेत अहं वदेयम् आवां वदेव वयं वदेम.
हा इति समीचीनम्. अस्तु सुजाता भगिनी इदानीं तत्र पतति इति सा इति स्वीकरोतु.
आं महोदय. सा पठेत्
पठेत् पठेत् तकारः पतति इति
पतति ओके. सा पठेत् ते पतेतां ताः पतेयुः त्वं पतेः युवां पतेतं यूयं पतेत अहं पतेयम् अवां पतेव वयं पतेम.
हा इति समीचीनम्. श्रीप्रिया भगिनी इदानीं तत्र पिबति इति सः इति सः पिबति
सः पिबेत् तौ पिबेतां ते पिबेयुः त्वं पिबेः युवां पिबेतं यूयं पिबेत अहं पिबेयम् आवां पिबेव वयं पिबेम.
हा समीचीनं भगिनि. अस्तु अग्रे प्रिया भगिनी, इदानीं तत्र हसति इति, सा हसति,
सा हसेत्, ते हसेताम्, ताः हसेयुः, त्वं हसेः, युवां हसेतम्, यूयं हसेत, अहं हसेयम्, आवां हसेव, वयं हसेम.
हा समीचीनं भगिनि. हा अस्तु अग्रे नरेश महोदय, तत्र चलति इति, सा चलति,
सा चलति, सा चलेत्, ते चलेताम्, ताः चलेयुः, त्वं चलेः, युवां चलेतम्, यूयं चलेत, अहं चलेयम्, आवां चलेव, वयं चलेम.
हा इति समीचीनम्. अस्तु मधु महोदय, इदानीं तत्र सा लिखेत्.
महोदय, सा लिखेत्, ते लिखेताम्, ताः लिखेयुः, त्वं लिखेः, युवां लिखेतम्, यूयं लिखेत, अहं लिखेयम्, आवां लिखेव, वयं लिखेम.
हा समीचीनं महोदय. अस्तु लक्ष्मी भगिनी, इदानीं तत्र नयति, सा नयति,
सा नयेत्, ते नयेताम्, ताः नयेयुः, त्वं नयेः, युवां नयेतं, यूयं नयेत, अहं नयेयम्, आवां नयेव, वयं नयेम.
हा समीचीनम्. इदानीं गीताञ्जलि भगिनि, इदानीं तत्र भवति, तत्र तत्र तद् भवति,
तत् भवेत्, ते भवेताम्, तानि भवेयुः, त्वं भवेः, युवां भवेत्तम्, यूयं भवेत, अहं भवेयम्, आवां भवेव, वयं भवेम.
हा इति समीचीनम्. अतः इदानीं तत्र साधारण अथवा सामान्यरूपस्य परिचयः जातः. तत्र सामान्यं नाम तत्र पट् धातुः, अकारान्तधातुः, तत्र पट् धातुः, अजन्तधातुः, तस्य पठेत्, पठेतां, पठेयुः, पठेः, पठेतं, पठेत, पठेयं, पठेव, पठेम इति. इदानीम् अग्रे तत्र विशिष्टरूपाणि अपि पश्यामः, किन्तु इदानीं सामान्यरूपम् अस्ति चेत्, मनसि स्थापितं चेत्, इदानीं तत्र पाठं पठितुं शक्नुमः, अपि तत्र अर्थः कः इति तस्य अवगमनमपि भवति इति चिन्तयामि. अतः अग्रे अग्रे सरामः तर्हि. तत्र उषा भगिनी तत्र आरम्भं करोति वा, वाक्य तत्र वाक्यद्वयं स्वीकरोतु, वाक्यद्वयं स्वीकरोतु, स्वीकृत्य वदतु भगिनी. हा
एकनवतितमपुटे न महोदय,
सत्यं भगिनि. हा हा
नकुलसहदेव.
हा सत्यं भगिनि.
नकुलसहदेवौ युद्धशिबिरे रात्रौ सम्भाषणं कुरुतः सहदेवः. भोः
कुत्र सन्ति ते, कुत्र सन्ति?
युद्धशिबिरे,
युद्धशिबिरे सन्ति.
युद्धशिबिरे सन्ति अथवा स्थः?
स्तः, स्तः, स्तः. अपि तौ तत्र युद्धशिबिरे इति पदमस्ति, विभक्ति का तत्र?
सप्तमी विभक्ति महोदय.
सप्तमी. हा तत्र सप्तमी नाम देश, देश कुत्र सन्ति इति. हा आधारः तत्र ते कुत्र सन्ति इति. अपि रात्रौ इति पदस्य विभक्ति का?
रात्रौ अपि सप्तमी विभक्ति.
हा इदानीं तत्र कस्मिन् काले इति, तत्रापि सप्तमी. हा अपि सम्भाषणम् इति अस्ति, तत्र विभक्ति का?
सम्भाषणं, द्वितीयविभक्ति अस्ति वा महोदय? सम्भाषणं लुड लिट् पदमस्ति वा महोदय?
तत्र सम्भाषणम् इति तद् भवितुमर्हति, किन्तु तत्र इदानीं केवलं पदं, तत्र सम्भाषणम् इति पदं विभक्ति का तत्र तस्य पदस्य?
द्वितीयविभक्ति अस्ति वा महोदय?
हा, द्वितीयविभक्ति, कर्मपदं. किमर्थं कस्य पदस्य कर्मपदं?
नकुलस्य युद्धशिबिरे रात्रौ सम्भाषणं कुरुतः.
सम्भाषणम् इति कर्मपदं, किन्तु कस्य पदस्य कर्मपदम्?
कस्य पदस्य इत्युक्ते युद्ध युद्ध युद्धविषये
न कुरुतः इति क्रियापदस्य एव कर्मपदं खलु, तावदेव. कुरुतः इति क्रियापदम् अस्ति, तत् सकर्मकधातुः खलु, कृधातुः
सकर्मकधातुः,
अतः तस्य कर्मपदं सम्भाषणम्. अस्तु अग्रे.
सहदेवः, भोः भ्रातः, श्वः युद्धस्य पञ्चमं दिनं. सहदेवः
तत्र क्रियापदं किम् अस्ति? न दत्तं, किन्तु
अस्ति. श्वः युद्धस्य पञ्चमदिनम् अस्ति. पञ्चमं दिनम् अस्ति.
हा, तत्र ऊहां करोति वा अथवा जानाति वा?
जानाति महोदय, ऊहा
जानाति, अतः एव तत्र अस्ति इति वदति. श्वः युद्धस्य पञ्चमं दिनम् अस्ति. अस्ति, अग्रे.
नकुलः वदति, आं भ्रातः, अद्यावधि पञ्चलक्षाधिकाः सैनिकाः वीरगतिं प्राप्तवन्तः. आं नकुलः वदति, आं भ्रातः, अद्यावधि इत्युक्ते अद्यपर्यन्तं पञ्चलक्षाधिकाः.
पञ्चलक्षाधिकाः नाम किं? पञ्चलक्षाधिकाः नाम किं?
लक्षाधिकाः, 5 लाक्स् इति महोदय, पञ्चलक्ष.
संस्कृतभाषायां वदतु, तत्र नाम किं?
पञ्चलक्षाधिकाः कथं वदनीयं महोदय?
भवती एव वदतु, कथं हा, तत्र पञ्चलक्षजनाः सन्ति, किन्तु तस्य उपरि केवलं पञ्चलक्षजनाः न, किन्तु
तस्य
अधिक, तस्य अपेक्षया
गणनं न कर्तुं न महोदय.
गणनं कर्तुं शक्नुमः, किन्तु यदि गणनं कुर्मः पञ्चलक्ष इति न्यूना संख्या भवति, तस्याः अपेक्षया अधिकाः जनाः
मरणं प्राप्तवन्तः.
मरणं वीरगतिं प्राप्तवन्तः. हा, इदानीं तत्र क्रियापदं किम् अस्ति? तत्र
पञ्चलक्षसैनिकाः
न, क्रियापदं
प्राप्तवन्तः महोदय.
हा, प्राप्तवन्तः, किन्तु साक्षात् क्रियापदं तत्र तवतु रूपम् अस्ति खलु, प्राप्तवन्तः, किन्तु यदि साक्षात् क्रियापदम् इच्छामः सन्ति इति
सन्ति.
प्राप्तवन्तः
नास्ति चेत् मरणं
तत्र वीरगतिं प्राप्तवन्तः.
यदि प्राप्तवन्तः, तवतु प्रत्यय न उपयोगं साधारणप्रयोगे
किं भवति?
पञ्चलक्षाधिकाः सैनिकाः वीरगतिं प्राप्तवन्तः सन्ति
इति सन्ति. किन्तु तत्र यदि लृङ्लकारः वक्तुम् इच्छति चेत् तत्र अन्यकोपि सहायं करोति वा? तत्र
प्राप्नुवन्ति
प्राप्नुवन्ति
लट्लकारे लट्लकारे
प्राप्नुवन्ति लट्लकारे
लङ्लकारे प्राप्नुवन् प्राप्नुवन्
प्राप्नुवन् प्राप्नुवन्
महोदय
प्राप्नुवन्
न केवलं तत्र प्रा इति किम् अस्ति? प्राप्नोति इति तत्र उपसर्गः अस्ति,
उपसर्गमस्ति. आम् आम् आम्
उपसर्गः अस्ति,
प्रायोगः.
कः उपसर्गः?
प्राप्नोत् इति अस्ति, प्रयोगः अयोगः
प्राप्नुवन् प्राप्नुवन्
आप्नोत् आप्नोत् इति आप्नोति हा इदानीं तत्र आप्नोति इति पदस्य लृङ्लकारः कः
आप्नुवन्
आप्नुवन् बहुवचने अस्तु समीचीनम् इदानीं तत्र प्र इति स्थापयामश्चेत् किं भवति
लङ्लकार एव महोदय
तत्र नियमः कः लकारस्य समये उपसर्गः उपसर्गः अस्ति चेत् लङ् तत्र लकार लकारम् अन्यलकारम्
इच्छामः उपसर्गयोगः लङ्लकाररूपं
हा प्रथमतया
उपसर्गयोग
हा उपसर्गं निष्कास्य लकारं कृत्वा तदनन्तरं पुनः उपसर्गं
स्थापयामः
योजयामः अतः प्र इति अस्ति चेत् तत्र अप्राप्नोत् इति न भवति किन्तु
आप्नोत्
अप्राप्नोत् न प्र आप्नोत् इति खलु अतः पुनः तत्र बहुवचने किं रूपम् आसीत् आप्नु
आप्नुवन् अस्ति न महोदय
हा इदानीम् उपसर्गसहितक्रियापदम्
आप्राप्नुवन्
न प्राप्नुवन्
आप्नुवन् अस्ति तदनन्तरम् उपसर्गम् आदौ एव स्थापनीयं मध्ये न उषा भगिनी
आं महोदय प्राप्नुवन् अस्ति महोदय
इदानीम्
उपसर्ग उपयोगं कर्तुं समये अप्राप्नुवन्
किमर्थम् अप्राप्नुवन्
क्लेशः भवति महोदय
अतः एव पृच्छामि भगिनि अतः एव पृच्छामि तत्र भगिनि प्र इति उपसर्गः अस्ति खलु
आं महोदय
अस्तु प्राप्नोति प्राप्नोति तत्र प्र इति उपसर्गः तदनन्तरम् आप्नोति इति अस्ति खलु
आं महोदय
हा प्र योगः आप्नोति इदानीम् आप्नोति इति स्था पदस्य लृङ्लकारः कः आप्नोत्
आप्नोत्
आप्नोत् इदानीं पुनः प्र इति स्थापयतु आदौ एव स्थापयतु अकार तदनन्तरम् आप्नोत् मध्ये न प्र योगः आप्नोत्
किं
हा तदेव अस्ति इदानीं बहुवचने किम् प्रयोगः आप्नु
वन्
हा इदानीं किं भवति प्रयोगः आप्नुवन् किं भवति
प्राप्नुवन्
हा अस्ति वा समीचीनं वा
आं महोदय पठितवन्तः महोदय पूर्वमेव
सत्यं सत्यं तत्र किं यत् अवगमनम् अस्माकं मनसि तिष्ठति तत् कथम् अस्ति इत्युक्ते तत्र समुद्रतीरे गत्वा तत्र किं समुद्रतीरे तत्र गत्वा किमपि यदि लिखामः तत्र लेखनं यत् लिखितवन्तः तत्र किमपि लिखामः तत् तिष्ठति वा
न तिष्ठति महोदय
हा तथैव अस्माकं मनः अपि तत्र बहुकालं न तिष्ठति तावदेव तत्र सर्वदा एषः एव अस्तु अतः एव बहुवारम् अभ्यासम् अभ्यासम् इति अस्तु चिन्ता मास्तु धन्यवादः भगिनि प्रिया भगिनि
अद्यावधि इति अस्ति तत् अव्ययमस्ति परन्तु तस्य किञ्चित् विवरणं ददाति वा महोदय
हा अद्यावधि नाम अद्यपर्यन्तम् इति अवधिः अवधिः इति तत्र कालं सूचयति अवधिः अवधिः तत्र अस्मिन् तत्र अवधिः तत्र एतस्मिन् कालविभागे इति अद्यावधि नाम तत्र काल पूर्वं यत् कालम् आसीत् ततः अद्यपर्यन्तम् इति अतः अद्यपर्यन्तं नाम तत्र युद्धारम्भात् अद्यपर्यन्तम् इति तत्र कालस्य अवधिः
अस्तु महोदय धन्यवादः
तं
परन्तु महोदय अद्य अवधि
केवलम् अद्य नास्ति, अद्य पर्यन्तम् अस्ति,
अद्य पर्यन्तम् इति चिन्तयामि महोदय. अध्यावधिः नाम अद्य पर्यन्तम् इति चिन्तयामि महोदय. समीचीनं नास्ति वा?
अहं चिन्तयामि अवधिः तु समयः अस्ति, अद्य अवधि. अहं चिन्तयामि केवलम् अद्य अवधिः अस्ति, न तु अद्य पर्यन्तम्.
न महोदय, आज तक् न महोदय, यदि
सत्यं सत्यं
बट् पर्यन्तं कथम् आगत? अहं चिन्तयामि अद्य अवधि, द्वे अपि शब्दाः सन्ति
सन्दर्भानुसारं. सत्यं महोदय, एकं तु तत् प्रायशः तद् सः अर्थः अपि भवितुम् अर्हति यद् भवान् सूचयति, नाम अवधिः का इत्युक्ते अद्य एव अवधिः इति भवान् वदति खलु?
आम्.
हा, तत् प्रायशः भवति महोदय. किन्तु तत्र अद्यावधि नाम तत्र अद्य आरभ्य इति अर्थः अपि भवति, अद्य पर्यन्तमपि अर्थः भवति. अतः तत्र अत्र तु प्रायशः अद्य पर्यन्तम् इति अर्थः अस्ति इति मन्ये महोदय. केवलम् एकस्मिन् अद्य कस्मिन् दिने इति नास्ति इति मन्ये महोदय.
अस्तु,
इति मम चिन्तनं. तत्र प्रायशः द्रष्टव्यमस्ति, किन्तु अद्य
तदेव अस्ति महोदय. अद्य इति सीमा भवति तत्र अद्य पर्यन्तम्.
अस्मिन् सन्दर्भे नरेश् महोदय प्रायशः पर्यन्तम् इति समीचीनम् इति मन्ये महोदय.
अहं चिन्तयामि पर्यन्तं कथम् आगतः, अद्य अपि च
महोदय. किन्तु तत्र सन्दर्भानुसारं नाम तत्र द्रष्टव्यमस्ति, तत्र तत्र अद्य आरभ्य भवितुमर्हति, अद्य पर्यन्तं भवितुमर्हति. अद्य नाम केवलम् अद्य अस्मिन् दिने किम् अभवत् इति, सा अपि तस्य कालस्य अवधिः भवितुम् अर्हति.
अस्तु,
किन्तु अत्र अद्य पर्यन्तम्. धन्यवादः शुभभगिनी. धन्यवादः
महोदय. क्षम्यतां,
वदतु भगिनी. श्रीप्रभगिनी वदतु
महोदय. पूर्वस्मिन् वाक्ये दत्तमस्ति खलु पञ्चमं दिनम् इति, अतः पञ्चदिनानि समाप्तानि, अतः एतावता पञ्चलक्षाधिकाः, अतः पर्यन्तम् इत्येव भवितुम्.
महोदय,
अद्य यावत् इति वक्तुं शक्यते वा? अद्य यावत्
तदपि प्रायश कर्तुं शक्नुमः भगिनि. हा,
अस्तु,
तत्र अद्य पर्यन्तम्, अद्य यावत् तद् भवितुम् अर्हति इति मन्ये भगिनि. हा, अस्तु. इदानीं तत्र शुभभगिनी तत्र वक्तुं शक्नोति वा इदानीं भवती अपि?
आं महोदय,
अस्तु अस्तु अस्तु. तर्हि इदानीम् अग्रे तत्र हा, लक्ष्मी भगिनी अग्रे पठति वा?
अस्तु महोदय. सहैव श्वः किं किं भवेत् इति चिन्तयामि. कः युद्धारम्भं कुर्यात्? कुर्यात् अपि विधिलिङ्ग्.
तत्र अन्यस्मिन् अन्यत्र कुत्रापि तत्र ध्वनिः अस्ति वा?
नास्ति
नास्ति नास्ति. अस्तु 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 भगिनि. हा, अस्तु, वदतु भगिनि. हा, श्वः किं किं
भवेत् इति चिन्तयामि.
हा, तत्र किं भवेत् इति चिन्तयामि. तत्र श्वः किं भवति इति न जानीमः, अस्माकं ज्ञानं नास्ति. अतः तत्र किं भवेत् इति ऊहां कुर्मः. किं किं भवेत् इति चिन्तयामि इति वदति सहदेवः. अग्रे
कः युद्धारम्भं कुर्यात्?
हा, सः कः कः युद्धारम्भं कुर्यात्? हा, पुनः तत्र कः युद्धं युद्धस्य आरम्भं करोति इति सम्यक्तया न जानीमः. सः कः युद्धारम्भं कुर्यात् इति पृच्छति. हा, अग्रे
नकुलः तत्तु सेनापतिः
निश्चिनुयात्.
भवान् केन सह युद्धं कुर्यात्?
हा तत्र सेनापतिः किं निश्चिनुयात्?
युद्धार्थः
कः करोति इति सः करोति इति सेनापतिः सः निश्चिनुयात्. अग्रे भवान्
केन सह युद्धं कुर्यात्?
हा तत्र पुनः न ज्ञानं नास्ति तत्र केन सह युद्धं कुर्मः इति, अतः तत्र भवान् केन सह युद्धं कुर्यात् इति प्रश्नः अस्ति तत्र. कुर्यात् इति तत्र निश्चुनीयात् कुर्यात् इति सामान्यरूपं नास्ति, अग्रे पश्यामः तस्य रूपं कथं भवति इति, किन्तु विधिलिङ्गकारः एव इति मनसि भवेत्. अस्तु तर्हि अग्रे तत्र सुजाता भगिनी अग्रे पठति वा तत्र?
आं महोदय. सहदेवः ये पुरतः आगच्छेयुः तैः सह कुर्याम. ते पुरतः आगच्छेयुः, विधिलिङ्गकार बहुवचनमस्ति, आगच्छेयुः
तत्र आगच्छेयुः इति तत्र लकारः कः भगिनि?
आगच्छेयुः लकारः नास्ति महोदय,
किन्तु न तत्र गच्छति इति तत्र किम् आसीत्?
गच्छेयुः.
आगच्छति अस्ति चेत् किं भवति रूपं, किं भवति?
आगच्छेयुः.
हा आगच्छेयुः अपि तत्र विधिलिङ्गकारः एव,
विधिलिङ्गकार एव तैः सह कुर्याम्
तत्र यः अग्रे तत्र पुरतः आगच्छति अथवा ये पुरतः आगच्छन्ति तैः सह युद्धं, हा तैः सह युद्धं कुर्याम्. तत्र कर्तृपदं किमस्ति अस्मिन् वाक्ये? क्रियापदं कुर्याम् अस्ति,
सैनिकः अस्ति,
न तत्र कुर्यात् अस्ति चेत् सः कुर्यात्. इदानीं तत्र न तत्र पठे तत्र पुनः भगिनि तत्र 93 पुटे तत्र पश्यतु, पठेत् पठेतां पठेयुः, पठेः पठेतं पठेत, पठेयं पठेव पठेम इति अस्ति खलु? इदानीं तत्र कुर्याम् इति पदं कस्य पदस्य सदृशः सदृशपदम् अस्ति, कीदृश तत्र पठेयम् इति तादृशम् अस्ति खलु, अतः तत्र पठेयम् इति क्रियापदमस्ति चेत् कर्तृपदं किम्?
अहम्
अत्रापि अहं कुर्याम् अहं किं कुर्याम्? यः पुरतः आगच्छेयुः तैः सह अहं युद्धं कुर्याम्. अग्रे
अस्माकं व्यूहरचना कथं स्यात्?
व्यूहरचना कथं स्यात्? व्यूहरचना नाम सैन्यस्य तत्र विभजनं, सैन्यस्य विभजनं तत्र कुत्र जनाः सन्ति, अत्र दश सहस्रजनानि सन्ति, तत्र इदानीं तत्र अद्य तत्र किं पक्षीरूपेण तत्र कुर्मः वा अथवा तत्र प्रतिदिनं तत्र शैली तत्र युद्धशैली अद्यतनशैली का इति तत्र तस्य नाम अस्ति व्यूहरचना कथं स्यात् इति न जानीमः अतः स्यात् इति तत्र स्यात् इति अस् धातोः रूपं पट् इति पठेत् अस्ति इति स्थाने स्यात् इति भवति. समीचीनं भगिनि अस्तु अग्रे तत्र श्रीप्रिया भगिनी अग्रे धन्यवादः भगिनि अस्तु अग्रे श्रीप्रिया भगिनी
आं महोदय नकुलः प्रायः द्वौ व्यूहौ भवेताम् इति चिन्तयामि आवां नेतृत्वं वहेव सहदेवः आम् आत्मानं परितः अश्वदलं स्थापयेव नकुलः प्रायः अस्ति इति कारणेन भवेताम् इति सम्भावनार्थे सूचयति सम्भावनार्थे भवति अत्र प्रायः द्वौ व्यूहौ नकुलः वदति द्वौ व्यूहौ भवेताम् इति अहं चिन्तयामि इति सः वदति
तत्र श्वः द्वौ व्यूह भवेताम् इति अग्रे
आवां नेतृत्वं वहेव वय आवां द्वौ नकुलः सहदेवौ च नेतृत्वं वहेव इति वहेव इत्यस्य पर्यायपदं
तत्र व्यूहौ इति अस्ति तत्र व्यूहौ इति तत्र तत् स्थापयतु तत्र आवां कस्य नेतृत्वं वहेव आवां
द्वयोः व्यूहयोः नेतृत्वं वहेव
इति समीचीनम् अग्रे
महोदय वहेव इत्यस्य किमपि पर्यायपदमस्ति वा नयेम इति वक्तुं
तत्र तस्य
लीड्
लीड् इति अथवा तत्र उत्तरदायित्वं तत्र तस्य उत्तरदायित्वं तत्र व्यूहयोः उत्तरदायित्वम् अस्माकं तत्र भवति इति
आम् अस्तु महोदय
तत्र वहेव तत्र नेतृत्वं वहेव नाम वयमेव तत्र आवामेव तत्र नेता नेतारौ नेतारौ
नेतारः
नेतारौ तत्र भवेव इति नेतारौ भवेव इति
अस्तु महोदय
अग्रे
अग्रे सहदेवः वदति आम् आत्मानं परितः अश्वदलं स्थापयेव आवयोः पुरतः नो चेत् आवयोः पार्श्वे इति वक्तुं शक्यते वा
परितः
एव द्वयोः अस्तु
आत्मानम् इति अस्ति आत्मानम् इति तत्र विभक्तिका तत्र
द्वितीय एकवचनं महोदय
परितः अस्ति चेत् आत्मान
द्वितीय
आत्मानं तत्र स्वं परितः तत्र स्वस्य स्वम् इति पदं स्वीकृत्य स्वं परितः
अश्वदलं आवां स्थापयेव इति सः वदति नकुलसहदेव
यदि तदेव कुरु तत्र श्वः तदेव भवति न वा इति न जानामि किन्तु चिन्तनं कुरु इदानीं तत्र चिन्तनं तादृशम् अस्ति तत्र एतत् कर्तुं शक्नुमः इति अश्वदलं स्थापितुं शक्नुमः इति समीचीनं भगिनि अस्तु
धन्यवादः
अस्तु अग्रे श्वः भगिनि
शमिता महोदय एक तत्र किमर्थम् आत्मानम् इति पदं दत्तं तत्र इत्युक्ते
आत्मानं परितः भगिनि तत्र अरौण्ड् एस् इति अर्थे
अस्तु आत्मानं अरौण्ड् अस्
आत्मानं परितः तत्र स्व इति स्थाने आत्मा इति अपि भवितुमर्हति खलु
अस्तु अस्तु
आत्मा इति साक्षात् आत्मा इति नास्ति केवलं तत्र देहः आत्मानं परितः स्वस्य तत्र स्वम् इति स्थाने आत्मानम् इति समीचीनं वा भगिनि
अवगतं महोदय
अस्तु भगिनि अस्तु
परन्तु महोदय अत्र अत्र आत्मानम् अस्ति आत्मानौ नास्ति
न महोदय तत्र एकवचने तत्र नाम अरौण्ड् ईच् आफ् अस् इति अर्थे तत्र एकमेकं प्रत्येकं तत्र अतः
द्वौ परितः
न द्वौ परितः न तत्र अरौण्ड् ईच् आफ् अस् इति अर्थे तत्र एकमेकं प्रत्येकम् अर्थस् इति अर्थः तत्र भवति तत्र.
अस्तु अस्तु.
हा अतः तत्र आत्मानं परितः प्रत्येकस्य तत्र तत्र भ्रातारौ सन्ति किन्तु तत्र एकस्य भ्राता तत्र तं परितः अश्वदलः धर अश्वदलं स्थापयामि इति चिन्तयन्ति. अन्यः भ्राता अस्ति तं परितः अपि अश्वदलं भवति इति.
परन्तु स्थापयेव अस्ति
स्थापयेव यतोहि न जानन्ति तत् कर्तुं शक्नुवन्ति न वा इति. अतः सम्भावना खलु
तत्तु द्वौ अस्ति स्थापयेव अत्र एकम् अस्ति.
हा तादृशप्रयोगः भवति महोदय.
अस्तु अस्तु.
हा नाम प्रत्येकमनुष्यस्य मनुष्यं परितः एतत् कुर्मः इति. अस्तु
महोदय. तत्र लघुवाक्यम् अश्वदलं स्थापयेव वा?
हा तावदेव.
अश्वदलं स्थापयेव
अश्वदलौ अपि भवितुमर्हति किन्तु तत्र प्रत्येकस्य केवलम् अश्वदलम् आसीत् चेत् तत्र आत्मानं नास्ति तत् सर्वं नास्ति चेत् तत् प्रायशः तत्र भवे नाम तत्र प्रत्येकं मनुष्यं परितः एकम् अश्वदलं स्थापयेव इति अस्ति.
अस्तु
प्राय अतः तत्र अश्वदलद्वयं भवति इति मन्ये भगिनि.
महोदय तत्र स्थापयेव इति आवाम् इत्यस्य अन्वयः अस्ति वा महोदय?
सत्यं भगिनि. हा
अस्तु तत्र अश्वदलं
तत्र आत्मानम् इत्युक्ते अरौण्ड् अस् अरौण्ड् ईच् आफ् अस् इति अर्थे.
आम् आवाम् आत्मानं परितः अश्वदलं स्थापयेव इति
तत्र लेट् अस् अरौण्ड् ईच् किमपि कर्तुं शक्नुमः. अतः तत्र क्रियापदम् एकवचने बहुवचने द्विवचने भवितुम् अर्हति. आत्मानं परितः इति एकवचने एव तिष्ठति. अस्तु तर्हि अग्रे शोभा भगिनी.
आम् नकुलः कदाचित् पितामहः भीष्मः गणतन्त्रं परिवर्तयेत् कौरवाः. आम् किं महोदय?
रणतन्त्रं
किमपि न
रणतन्त्रं क्षम्यतां रणतन्त्रं परिवर्तयेत् कौरवाः युगपत् सर्वत्र आपतेयुः.
तत्र कदाचित्
कदाचित् तदपि
नाम कदाचित् अस्ति चेत्
अनिश्चितप्रायः इति पदं. पितामहः भीष्मः तत्र विशेषविशेषणं रणतन्त्रं परिवर्तयेत् इति तत्र वर्तयेत् इति भवति तदनन्तरं परि उपसर्गयोगः वर्तयेत् परिवर्तयेत् इति एकवचने भवति.
तत्र तत्र स करोति न वा इति जानीमः न जानीमः. अतः तत्र
प्रायशः परिवर्तयेत् इति
इति अर्थः. किं परिवर्तयेत्? रणतन्त्रं 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 नाम
रणतन्त्रम् इत्युक्ते तत्र वार्फेर् किं महोदय?
तत्र किं तत्र
स्ट्राटेजि पर्यायवाचकपदं न जानामि. रणतन्त्रम् इत्युक्ते रणयुक्तिः वा? रणयुक्ति
हा तत्र कः उपायः भवति अथवा
व्यूहं कथं करणीयम् इति
एतत् सर्वं तत् रणतन्त्रे अन्तर्भूतः इति.
हा रणे किमपि उपायं करणीयमस्ति अथवा करणीयानि उपायानि करणीयानि सन्ति.
कया शैल्या
कथं करणीयम् इति सैनिकाः कुत्र भवेयुः
इति रणतन्त्रम् अस्तु अग्रे
कौरवाः युगपत् सर्वत्र आपतेयुः तत्र युगपत् इत्युक्ते एकस्मिन् काले इति मन्ये महोदय युगपत् सर्वत्र एकस्मिन् काले एव सर्वत्र आपतेयुः पतेयुः इति पत् धातोः बहुवचने प्रथमपुरुषे विधिलिङ्ग् अलकारः तत्र आ इति उपसर्गस्य योजनेन आपतेयुः इति भवति
तत्र आपतेयुः इति स्थाने तत्र केवलं साधारण लट्लकाररूपं किम् अस्ति
आपतन्ति
हा आपतन्ति किन्तु न जानीमः अतः आपतेयुः
हा सर्वतः आक्रमणं प्रायशः कुर्वन्ति इति
हा इति तत्र तस्य सम्भावना अस्ति हा एकस्मिन् काले तत्र सर्वत्र ते आक्रमणं कर्तुं शक्नुवन्ति अतः तत्र कुर्वन्ति न वा इति न जानीमः किन्तु तत्र तादृशं भवितुम् अर्हति तत्र सम्भावना अस्ति
आपतेयु इत्युक्ते किं किम् अर्थमस्ति
आपतन्ति
पतन्ति इत्युक्ते अहं जानीमः आपते आपतन्ति इत्युक्ते किम् आक्रमणं वा
पतति आपतति इत्युक्ते किं भवति
आगत्य पतन्ति इति अस्माकम् उपरि
तत्र अहं साक्षात् न कुर्मः तत्र पतति नाम तत्र फलं पतति किन्तु आपतति किमपि तत्र अद्य किमपि तत्र वार्ता आगतम् इति वार्ता आगता इति वदामः खलु तत्र सा वार्ता आगता वयं किमपि न तत्र आपतन्ति नाम तत्र ते साक्षात् अन्यत्र गच्छन्ति तत्र आक्रमणं कुर्वन्ति कौरवाः एक सर्वत्र आपतेयुः सर्वत्र आक्रमणं कुर्युः एकस्मिन् समये वेदा भगिनी समीचीनं वा
आं महोदय आं धन्यवादः
अस्तु 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 तर्हि इदानीम् अग्रे तत्र प्रिया भगिनी
आं महोदय श्रूयते वा
श्रूयते भगिनि
अस्तु सहदेव तत्र आरम्भं करणीयं वा चिन्ता न करणीया
सत्यं चिन्ता चिन्ता
चिन्ता न करणीया कृष्णः तत् परिहरोपाय चिन्तयेत्
उपायं परिहारोपायं चिन्तयेत् तत्र चिन्ता न
चिन्ता न कुर्युः इति अस्ति चिन्ता न
करणीया
चिन्ता न करणीया
तत्र चिन्ता मा करोतु तत्र तत्र न करणीया अस्माभिः अथवा अस्मभ्यां चिन्ता न करणीया तत्र मया न करणीयं मया न कर्तव्यम् इति तत्र तृतीया कर्मणि अर्थे एव भवति अत्र अतः तत्र तत्र अस्मच्छब्दस्य तृतीया द्विवचनं रूपं किमस्ति
अस्मभ्यां आवाभ्यां क्षम्यताम्
आवाभ्यां
आवाभ्यां चिन्ता न करणीया
इति आवाभ्यां चिन्ता न करणीया अग्रे
कृष्णः तत् परिहारोपायम् इत्युक्ते तस्य इति परिहारं यः अस्ति परिहारस्य उपायं सः चिन्तयति
हा चिन्तयेत् कृष्णः चिन्तयेत् इति तत्र सः प्रायशः सः तस्य उपायं तत्र तस्य परिहारस्य उपायं नाम केन उपायेन एतस्य परिहारं भवति तद् उपायं सः तम् उपायं सः प्रायशः चिन्तयति खलु अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र नरेश महोदय
आं महोदय नकुलः वदति कृष्णार्जुनौ श्वः अन्यत्र
गच्छेताम्
हा
आवाभ्याम् सः भ्राता भीमः तिष्ठेत् अत्र कृष्णार्जौ श्वः अन्यत्र गच्छेताम् प्रायः कृष्ण अपि च अर्जुनः कुत्र अन्यत्र गच्छेताम्
हा तत्र अत्र समीपे ते तिष्ठन्ति इति तत्र न जानीमः तद् भवति अतः तत्र ते श्वः अन्यत्र गच्छन्ति तत्र तद् भवितुमर्हति अतः तत्र गच्छेताम् प्रायशः अन्यत्र गच्छेताम्
आवाभ्यां सह भ्राता भीमः तिष्ठेत् यदि कृष्ण अर्जुन अन्यत्र गच्छेताम् तदा भीमः तु अत्र अस्ति तत् अत्रापि अस्माकं समीपे
तत्र भ्राता इति तत्र नकुलसहदेवौ भ्रातरौ खलु भ्रातारौ भ्रातारौ नकुलसहदेवौ भ्रातारौ सन्ति स्तः तत्र आवाभ्यां सह इति स्थाने भ्राता भ्रातृ इति पदस्य तृतीयद्विवचनं योजयतु तत्र
भ्रातृभ्यां
सह भ्रातृभ्यां सह भीमः तिष्ठेत्
तिष्ठेत्
भ्रातृभ्यां सह भीमः तिष्ठेत् अथवा तत्र अनुजः अनुजौ इति स्वीकृत्य अनुजाभ्यां सह
अग्रजः भीमः तिष्ठेत्
अग्रजः भीमः तिष्ठेत् तत्र तिष्ठेत् इति एकवचने अस्ति तत्र द्विवचने बहुवचने किमस्ति
तिष्ठेताम् तिष्ठेयुः
हा तिष्ठेयुः इति अतः तत्र कृष्णार्जुनौ श्वः अन्यत्र गच्छेताम् इति स्थाने कृष्णार्जुनौ तत्र न इति स्वी उक्ति न तिष्ठति इति तत्र द्विवचने किं तिष्ठे
तिष्ठेताम्
अतः तत्र कृष्णार्जुनौ श्वः अत्र न तिष्ठे
तिष्ठेताम्
किन्तु
भ्राता भीमः
अत्र एव
तिष्ठेत्
तिष्ठेत् भीमः तु अत्र एव तिष्ठेत् कृष्णार्जुनौ अत्र न तिष्ठेताम् किन्तु भीमः अत्र एव तिष्ठेत् समीचीनं महोदय अस्तु अग्रे लक्ष्मी भगिनी अग्रे
श्रूयते वा महोदय
हा इदानीं श्रूयते भगिनि
सहदेवः तदापि तदपि उत्तममेव भीमं दृष्ट्वा कौरववीराः भीत्या धावेयुः धावेयुः विधिलिङ्ग् बहुवचने धावेत् धावेतां धावेयुः
के धावेयुः
कौरववीराः
तत्र किमर्थं ते धावेयुः
भीमं दृष्ट्वा
भीत्या
धावेयुः
धावेयुः समीचीनं अस्तु अग्रे तत्र अग्रे गीताञ्जलि भगिनि अन्तिमवाक्यं तत्र
युद्धे वयं जयेम अथवा ते जयेयुः किं तेन अस्माभिस्तु स्वधर्मः आचरितः भवति आं तथैव कुर्मः अस्तु युद्धे वयं जयेम युद्धे इति तु सप्तमी वयं जयेम वयं जयेम इत्युक्ते वयं सर्वे पाण्डवाः वयं
तत्र सैन्यं किन्तु वयं
पाण्डवाः जयेयुः पाण्डवाः जयेयुः वयं जयेम इति अथवा ते जयेयुः इत्युक्ते
कौरवाः
जयेयुः इत्युक्ते किमपि सम्भावना भवितुमर्हति
तत्र जयं पाण्डवानां जयं भवितुमर्हति अथवा कौरवानां
भवितुमर्हति अपि च कौरवानामपि जयं भवितुमर्हति किं तेन इति पृष्टवान् नकुलः इत्युक्ते किमपि
यत्किमपि भवतु किं
कुर्मः
तेन किमपि नास्ति
तस्य सङ्गं न
तस्य चिन्तनं कृत्वा कोऽपि लाभः नास्ति किमपि भवतु
किमपि
भवतु तत् स्वीकुर्मः इति अतः कथं तत्र अस्माभिस्तु नाम
अस्माभिः तु अव्यय अस्माभिः तु स्वधर्मः आचरितः भवति इत्युक्ते अस्माभिः स्वधर्मः आचरितः भवति तदेव करणीयम्
आचरितः तत्र प्रत्ययः
धर्मः आचरितः इति विशेषणम्
आचरितः भूतकाले कर्मणि अत्र अस्माभिः स्वधर्मः आचरितः
भवति
नाम
भवति
वयं तु स्वधर्मम् आचरामः
वयं स्वधर्मम् आचरामः
आचरामः अथवा अस्माभिः तु स्वधर्मः आचरितः भवति अस्माभिः
भवति
किं कृतः भवति स्वधर्मः आचरितः भवति स्वधर्मस्य आचरणम्
आचरितः भवति
वयं कृतवन्तः अथवा अस्माभिः स्वधर्मः आचरितः भवति अतः जयं कस्यापि भवतु किन्तु वयं तु स्वस्य धर्मं कृतवन्तः वयं
स्वस्य धर्मस्य पालनं
कृतवन्तः वयं स्वस्य धर्मस्य स्वधर्मस्य पालनं कृतवन्तः स्वधर्मस्य पालनमेव तत्र महत्त्वकरं स्वधर्मस्य पालनेन तत्र फलं किं भवति तत् तस्य चिन्तनं मास्तु
तदेव
अतः तत्र फलेन किं तत्र जयम् इति फलं
तेन
केवलं स्वधर्मपालनमेव मुख्यम् इति वदति अतः तत्र सहदेव वदति आम् तथैव कुर्मः स्वधर्मस्य पालनमेव कुर्मः
वयं कुर्मः
इति अस्तु समीचीनं भगिनि अस्तु अतः तत्र समीचीनं भगिनि अस्तु अतः तत्र इदानीं तत्र इदानीं तत्र पाठं पठितवन्तः तत्र साधारण अथवा सामान्यरूपस्य ज्ञानमपि प्राप्तवन्तः तत्र विधिलिङ्गकारस्य सम्भावना अर्थे तत्र रूपं कथं भवति इति अतः तत्र इदानीं तत्र विशिष्टरूपाणां रूपाणि अपि सन्ति तदपि तत्र कुर्मः किन्तु तत्र किम् अग्रे तत्र अभ्यासः अस्ति तद् प्रायशः अभ्यासः कुर्मः एकवारं प्रथम अभ्यासम् अपि द्वितीय अभ्यासं कर्तुं शक्नुमः इति मन्ये अतः तत्र वंशीसुधा भगिनी तत्र आरम्भं करोति वा प्रथम अभ्यासः अग्रिमे पुटे
आं महोदय अभ्यासः प्रथम अभ्यासः अस्ति एतानि उदाहरणवाक्यानि परिशीलयत लिखत च यत् अत्र सन्देहः अस्ति उत न इति अस्तु सम्भावना अस्ति वा इति द्रष्टव्यं तत्र प्रायः अद्य वृष्टिः न भवेत् तत्र उदाहरणमस्ति तत्र सन्देहः अस्ति यतोहि प्रायः अद्य वृष्टिः भवति वा न वा इति सन्देहः भवति
अतः सन्देहः अस्ति.
सम्यक्तया न जानीमः तत्र वृष्टिः.
समीचीनं. हा हा समीचीनम्.
अतः सन्देहः अस्ति. समीचीनम्
अस्ति. द्वितीयमस्ति, कदाचित् मम प्राप्तेः पूर्वमेव ते गच्छेयुः. कदाचित् मम प्राप्तेः, तत्र प्राप्तेः इति प्राप्तेः इति मध्यमपुरुषरूपमस्ति वा महोदय? प्राप्तेः कीदृशरूपम्
तत्र गच्छेयुः इति अस्ति. गच्छेयुः इति तत्र क्रियापदं, कर्तृपदं किम् अस्ति?
न, तत्र तु ते गच्छेयुः भवति न, ते गच्छेयुः,
ते गच्छेयुः, ते गच्छेयुः. तत्र कदा ते गच्छेयुः? पूर्वमेव.
पूर्वमेव गच्छेयुः. समीचीनम्.
पूर्वमस्ति चेत् तत्र नियमः कः? तत्र उपपदविभक्तिः पूर्वमस्ति.
ओ, पञ्चमी भवति न? पञ्चमी पूर्वं, परं पञ्चमी भवति. समीचीनम्, अस्तु. परन्तु प्राप्ते, ओ, त प्रत्ययः अस्ति न?
प्राप्तिः,
प्राप्तिः अस्ति. न न, क्षम्यतां, क्षम्यतां,
प्राप्तिः इति पदं, तस्य पञ्चमी,
प्राप्तेः पञ्चमी. समीचीनं. मम प्राप्तेः, अस्तु, मम प्राप्तेः पूर्वमेव ते गच्छेयुः. अस्तु. मम,
अतः स्वशब्दैः वदतु तत्र किं भवति.
तत्र
यदि कुत्र तत्र भवती विद्यालयं गच्छति किन्तु तत्र मित्राणि सन्ति, किन्तु किं किं भवेत् इति भवती चिन्तयति?
आम्, तत्र यदि मम आगमनं न भवति समये तत्र
आगमनात् पूर्वमेव
भवन्तं गच्छेयुः, भवन्तं गच्छेयुः,
ते गच्छेयुः. तत्र ते यदि तत्र गच्छन्ति इति भवत्याः चिन्तनम्. अतः तत्र
संशयः अस्ति.
प्राप्तेः नाम तत्र
मम आगमनं,
तत्र किमपि स्थानस्य प्राप्तिः नाम तत्र आगमनं, तत्र आगमनम् इति. तत्र मम प्राप्तेः पूर्वमेव ततः, तत्र यस्मिन् स्थले ते सन्ति ततः गच्छेयुः. यत् स्थलम् तत्र अहं प्राप्तुं
निश्चितवन्तः, तस्मात् ते गच्छेयुः.
स्थानस्य, तस्य स्थानस्य प्राप्तेः, तत्र तत् स्थानम् इदानीम् अहं प्राप्तुं तत्र प्राप्स्यामि इति चिन्तयामि, किन्तु तस्मात् प्राक् एव ते ततः गतवन्तः इति. तादृशी स्थितिः भवेत् इति.
यत्र तत्र कदाचित् नो चेत् प्रायः एते सर्वाणि पदानि सन्ति, तत्र तु संशयात्मकपदानि एव न स, तत्रैव विधिर्लिङ्ग् भवति,
तत्रैव विधिलिङ्ग् सम्भावनार्थे. समीचीनम्. अत्र सन्देहः अस्ति अत्र. समीचीनम्. समीचीनं भगिनि. अस्तु, अग्रे वेदा भगिनि.
महोदय,
तस्मात् पूर्वं महोदय, क्षम्यतां भगिनि, यदि अहं कदाचित् न उपयोगं करोमि तत्रापि भवति न संशय, संशयात्मक भवति किल?
एतत्तु केवलम् उदाहरणार्थं, तत्र
कदाचित्
प्रायशः स्पष्टं भवेत् इति. तत्र कदाचित् अथवा प्रायः तस्य प्रयोगः
आवश्यकता
नास्ति.
यतोहि तत्र गच्छेयुः, गच्छेयुः इति एव संशयः.
गच्छन्ति, तत्र गच्छन्ति इति स्थापितुं, तत्र स्थापितुं शक्नुमः समानार्थकवाक्यं. कदाचित्
परन्तु
पूर्वमेव ते गच्छन्ति.
न, मम प्रश्नः आसीत् महोदय, यदि कदाचित् न उपयोगं करोमि मम प्राप्तेः पूर्वमेव ते गच्छेयुः, तत्र संशयात्मकवाक्यं भवति किल तत्र?
सत्यं भगिनि, सन्देहः अस्ति.
सन्देहः
अस्ति, अस्ति, अस्ति. तत्र विकल्पद्वयमस्ति, तत्र कदाचित् इति मास्तु, गच्छेयुः इति स्थापयतु, अथवा गच्छन्ति इति स्वीकरोति चेत् प्रायः इति आदौ स्थापयतु.
समीचीनं. यदि तत्र हा प्रायः अस्ति चेत् तत्र भवति इति गच्छन्ति इति भवति तत्र संशयं भवति
वक्तुं शक्नुमः
लट्लकाररूपं
प्रायः इति तस्मिन् पदे एव तत्र सन्देहः स्थापितवन्तः
अस्तु महोदय
समीचीनम् अस्तु वेदा भगिनी
यदि यानं शीघ्रं गच्छेत् तर्हि समये प्राप्नुयाम् एव यदि यानं तत्र निश्चितः नास्ति सन्देहः अस्ति यदि यानं शीघ्रं गच्छेत् गच्छेत् इत्र विधिलिङ्गकारे प्रथमपुरुषे एकवचनमस्ति यदि यानं शीघ्रं गच्छेत् तर्हि समये प्राप्नुयाम् एव तं समये अहं प्राप्नुयाम् एव अहं तत्र प्राप्नुयामः आं सन्देहमस्ति यदि यानं शीघ्रं गच्छेत् तर्हि अहं प्राप्नुयाम्
तत्र किमस्ति भगिनि तत्र गच्छेत् इति तत्र विधिलिङ्ग् अस्ति प्राप्नुयामपि विधिलिङ्ग् अस्ति किन्तु तत्र किं भवति तत्र सन्देहः तत्र कुत्र अस्ति तत्र गच्छेत् तत्र सम्भावना अस्ति
तत्र सम्भावना
यदि यानं शीघ्रं गच्छति तत्र एव तर्हि समये प्राप्नुयाम् एव इति अस्ति एव इति तत्र निश्चयः अस्ति अतः तत्र तत् विद्यर्थे इति विद्यर्थ तत्र एतावत् न कृतवन्तः अग्रे भवति अग्रिमे पाठे किन्तु अत्र गच्छेत् इति एव तत्र सम्भावनार्थे प्राप्नुयाम् इत्युक्तौ विद्यर्थे इति भवति तत्र
महोदय संक्षिप्तेन वदतु विद्यर्थे
तत्र एव सन्देहः किन्तु प्राप्नुयाम् इति तत्र तत्र सन्देहः नास्ति
क्षम्यतां महोदय
इति वदामः
क्षम्यतां महोदय तत्र किञ्चित् संक्षिप्तरूपेण वक्तुं शक्यते वा तत्र एव किमर्थं तत्र संशयः
नास्ति तत्र
विद्यर्थे इत्युक्ते किम्
अग्रिमे पाठे भवति तत्र तदेव तत्र विद्यर्थे नाम आज्ञा अथवा तत् तद् भवति एव इति
अस्तु अस्तु महोदय
यत्र यत्र संशयः नास्ति इति अग्रिमे पाठे तत् तत्र पञ्चदशे पाठे एतद् भवति भगिनि विद्यार्थे समानरूपम् अस्ति इति कृत्वा तत्र किं तत्र क्लेशः भवितुम् अर्हति नाम एकमेव पदं तत्र विध्यर्थे विधिलिङ्गकारः किन्तु तस्य प्रयोगद्वयम् अस्ति सम्भावनार्थे विध्यर्थे इति विद्यर्थे तत् लोट्लकार इव अस्ति विध्यर्थे अस्तु तर्हि
लोट्लकार एव अस्ति वा लोट्लकार
एव अस्ति इति कृत्वा तत्र संशयः नास्ति सत्यं
लोट्लकार एव अस्ति
सत्यं महोदय लोट्लकर एव
सम्भवतः
अग्रे उषा भगिनि
आं महोदय सम्भवतः कक्षायां श्वः गणितपाठः भवेत् श्वः गणितपाठः भवेत् सम्भवतः इत्युक्ते कीदृशपदं महोदय तत्र सम्भवतः भवति अस्ति सम्भवति अस्ति वा महोदय अथवा पञ्चमी विभक्ति अस्ति वा महोदय तत्र सम् उपसर्ग अस्ति भवतः अस्ति वा अथवा पञ्चमी विभक्त्याम् अस्ति वा महोदय
सम्भवतः इति अहं चिन्तयामि तत् किं सम्भवतः
कक्षायां
प्रायशः पञ्चमी इति मन्ये अथवा तत्र अव्ययमपि इति भव किन्तु न जानामि भगिनि
द्रष्टव्यमस्ति
भगिनि
अस्तु कक्षायां श्वः गणितपाठः भवेत् संशयः अस्ति तत्र सन्देहः अस्ति
महोदय वयं एतत् वदामः
इति कारणतः इति वयं वदामः खलु तदेव सम्भवतः इति अहं मन्ये कारणतः तदे तादृशमेव सम्भावनातः
हा इति चिन्तयामि भगिनि हा किन्तु एकवारं तत्र द्रष्टव्यम् अस्ति हा तदेव मम चिन्तनमपि आसीत् किन्तु सत्यं भगिनि हा
पञ्चमीविभक्तिः
तत्र क्षत्रान्तपदमस्ति वा पञ्चमीविभक्तः पञ्चमीविभक्तौ महोदय संयुगः भू इति भवत्तः इति पञ्चमं भवति वा पञ्चमी क्षत्रान्तपदं भवति वा अर्हति न कृदन्तमस्ति न कृदन्तं भवति न
किन्तु तत्र क्षत्रान्तरूपं किं भवति तत्र भूधातोः
भूधातु भवत् इति भवति न भवत् भवत् भवन्तौ भवन्तः
क्षत्रान्तपदं किमर्थं भगिनि तत्र श्वः
सा न चिन्तितवती किन्तु अहं चिन्तितवान् तत्र सकारान्तम् अस्ति इति तत्र
तदेव तन् किञ्चित्
द्रष्टव्यम् अस्ति अस्तु किन्तु तत्र प्रायश तत्र पञ्चमी
नो चेत् अव्ययममपि अस्ति अव्ययं नास्ति
तत् सम्यक्तया न जानामि तत्र अव्ययं भवेत् पञ्चमी विभक्ति भवेत्
अस्तु द्रष्टव्यं
द्रष्टव्यमस्ति
महोदय भूधातोः सन् इति अस् धातोः न भवति वा शत्रान्तरूपं सन् सन्तो सन्तः एव भवति खलु
तत्र किं भवति तत्र पञ्चमी तत्र किं भवति
सतः इति भवति खलु तत्र
अतः अत्र
चिन्तयामि महोदय
तत्र सम्भवतः तत्र भूधातुः एव अस्ति खलु तत्र सम्भू किन्तु तत्र एतद् रूपं किम् इति न जानामि भगिनि अतः सत्यं तत्र अस्धातोः सन् इति किन्तु अत्र किम् अस्ति इति तत्र समस्या अस्ति अस्तु अग्रे तत्र सुजाता भगिनी अग्रिमवाक्यम्
महोदय ऐ डोण्ट् हेव् दिस् वन् वेर् इस् इट् महोदय
प्रथमाभ्यासः 92 पुटसङ्ख्या 92 मध्ये
ओके
तत्र अवधेयम् अस्ति तदनन्तरं
एतान् श्लोकान् पठत
तस्य अधो भागे अभ्यासः इति आरम्भः
अभ्यासः
अत्र पञ्चमवाक्यं
पञ्चम
कदाचित् नास्ति वा
नूतनपुस्तके तत्र नास्ति मम पर्यापि
अस्ति वा
नास्ति महोदय
चिन्ता मास्तु श्रीप्रिया भगिनि तत्र पञ्चमवाक्यं
महोदय क्षम्यतां भवत् इत्यस्य भवन् भवन्ति इत्येव सदृशान्
इति वा अस्तु
आमामां कदाचित् परीक्षा अस्मिन् मासे एव भवेत् अत्र कदाचित् इति दत्तमस्ति इति कारणेन सम्भावनार्थे इति भवितुम् अर्हति इति सूचयति परीक्षा प्रायः भवति इति
अस्मिन् मासे एव भवति इति अस्ति किन्तु कदाचित् अपि दत्तमस्ति अतः सन्देहः अस्ति
अस्ति
तत्र एव इति तत्र निश्चितार्थे न किन्तु तत्र सीमा अस्ति सीमा सीमां करोति तत्र कस्मिन् समये परीक्षा भवति इति किन्तु परीक्षा कस्मिन् मासे भवति न वा इति संशयः अस्ति अस्तु अग्रे तत्र शोभा भगिनी
कदाचित् विद्युत् गता स्यात्
सन्देहः अस्ति वा
सन्देहः अस्ति तत्र महोदय स्यात् इति
स्यात् इति अस्ति
तत्र विषयद्वयं कदाचित् अपि अस्ति अनिश्चितार्थकं
सन्देहः
अपि च सन्देहः अस्ति एव नास्ति चेदपि विद्युत् गता स्यात् इति अस्ति चेदपि सन्देहः अस्ति एव तत्र
सत्यं समीचीनं भगिनि अस्तु अग्रे तत्र प्रिया भगिनी अग्रे
सर्वे खादन्ति अत्र सन्देहः नास्ति
सन्देहः नास्ति समीचीनम् अस्तु अग्रे नरेश महोदय
सर्वे पश्येयुः पश्येयुः अत्र तु
तत्र सर्वे पश्यन्ति इति अस्ति वा अथवा सर्वे पश्येयुः इति अस्ति वा
पश्येयुः विद्यार्थे अस्ति चेत्
न न विद्यार्थे इदानीम् अद्य न जानीमः खलु अतः केवलं तत्र अस्ति चेत् तत्र तद् वाक्यं यत् यत्र विद्यार्थे इति आसीत् तत् त्यजतु तद् तद् केवलं तत्र सर्वे पश्यन्ति तत्र सन्देहः नास्ति अत्र सर्वे पश्येयुः इति अस्ति अत्र
सन्देहः अस्ति
अस्ति इति चिन्तयामः तावदेव महोदय अस्तु अग्रे मधु महोदय
महोदय अहं सर्वं न जानामि सन्देहः सन्देहः नास्ति
सन्देहः नास्ति अहं सर्वं न जानामि सन्देहः नास्ति तत्र अस्तु समीचीनम् अस्तु अग्रे लक्ष्मी भगिनी
अस्तु महोदय अहं सर्वं न जानीयाम्
अत्र सन्देहः अस्ति वा
सन्देहः नास्ति
जानीयां जानीयां जानामि इति नास्ति जानीयामिति
सन्देहः अस्ति
सन्देहः अस्ति अतः तत्र किं वदामः तत्र साधारणतया वयं किं शृण्मः अहं सर्वं न जानामि इति एव शृण्मः यदि कोऽपि वदति तत्र अहं सर्वं न जानीयाम् इति तत्र किं चिन्तनं भवति तस्मिन् मनसि कः सन्देहः अस्ति
सन्देहः अस्ति
प्रायशः सर्वं जानाति
इति सन्देहः अस्ति
हा सर्वं न जानामि इत्युक्ते तत्र सर्वं जानामि वा अथवा न जानामि इति तस्य मनसि अस्ति इति प्रश्नः अस्ति किन्तु साधारणतया वयं जानीमः तत्र सर्वं न जानामि इति एव स्थितिः अस्तु तर्हि अतः तत्र गीताञ्जलिभगिनी पुनः केवलं तत्र शान्तिमन्त्रम् इति वदति वा भगिनी समयः अपि जातः
महोदय क्षम्यतां तत्र सम्भवतः इति पञ्चमी विभक्तौ एव अस्ति महोदय अहं चिन्तयामि सम्भवः इति अस्ति पुल्लिङ्गशब्दः सम्भवतः इत्युक्ते तत्र पञ्चमी विभक्ति फ्रम् इति भवति इति मम चिन्तनम् अस्ति
अस्तु भगिनि हा तदपि अस्तु भगिनि समीचीनं
सम्भवतः कक्षायाम् इत्युक्ते तत्र पञ्चमी एव भवति इति मम चिन्तनं परन्तु भवान् अपि दृष्ट्वा वदतु
सर्वे अन्वेषणं कुर्मः
अस्तु महोदय
समीचीनं भगिनि अस्तु अत्र तत्र गीताञ्जलिभगिनी अन्ते शान्तिमन्त्रं वदति वा
आं महोदय ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्ति हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय
धन्यवादः
धन्यवादः महोदय